अथ तृतीयः पादः देविका शिंशपादित्यवाड्दीर्घसत्रः श्रेयसामात् केकयमित्रयो प्रलयानायादेरियः नैवाभ्याम् पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् द्वारादीनाम् च न्यग्रोधस्य च केवलस्य न कर्मव्यतिहारे स्वागतादीनाम् च श्वादेरि पदान्तस्यान्यतरस्याम् उत्तरपदस्य अवयवादृतोः सुसर्वार्धाज्जनपदस्य दिशो मद्राणाम् प्राचाङ्ग्रामनगराणाम् सङ्ख्यायाः संवत्सरसङ्ख्यस्य च वर्षस्याभविष्यति परिमाणान्तस्यासंज्ञाषाणयोः जे प्रोष्ठपदानाम् हृद्भगसिन्ध्वन्ते पूर्वपदस्य च अनुशतिकादीनाम् च देवताद्वन्द्वे च नेन्द्रस्य परस्य दीर्घाच्च वरुणस्य प्राचाम् नगरान्ते जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् अर्धात् परिमाणस्य पूर्वस्य तु वा नातः परस्य प्रवाहणस्य ढे तत्प्रत्ययस्य च नयः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् यथा तथा यथा पुरयोः पर्यायेण हनस्तोचिण्णलोः आतो युक्षिण्कृतोः नोदात्तोपदेशस्य मान्तस्यानाचमेः जनिवध्योश्च अर्तिह्रीव्लीरीक्नुयीक्ष्माय्याताम् पुग्नौ साच्छासाह्वाव्यावेपायुक् वो विधूनने जुक् लीलोर्नुग्लुकावन्यतरस्याम् स्नेहनिपातने भियो हेतुभये शुक् स्फायो वः शदेरगतौ तः रुहः पोन्यतरस्याम् प्रत्ययस्थात्कात् पूर्वस्यात इदाप्यसुपः नयासयोः उदीचामातस्थादेयकपूर्वायाः भस्त्रैषाजाज्ञाद्वा स्वानैपूर्वाणामपि अभाषितपुंस्काच्च आदाचार्याणाम् ठस्येकः इसुसुक्तान्तात्कः चजोः कुघिण्यतोः न्यङ्क्वादीनाम् च होहन्तेर्ण्येषो अभ्यासाच्च हेरचङि संलिटोर्जेः विभाषाचेः नक्वादेः अजिव्रज्योश्च भुजन्युब्जौ पाण्युपतापयोः प्रयाजानुयाजौ यज्ञाङ्गे वञ्चेर्गतौ ओक उचः के ण्य आवश्यके यजयाच रुच प्रवचर्चश्च वचो शब्दसंज्ञायाम् प्रयोज्य नियोज्यौ शक्यार्थे भोज्यम् भक्ष्ये घोर्लोपो लेटि वा ओतश्यनि क्षस्याचि लुग्वा दुह दिह लिह गुहामात्मनेपदे दन्त्ये शमामष्टानां दीर्घशनि ष्ठिवोक्लमुचमांशिति क्रमः परस्मैपदेशो ईशु गमियमांच्छः पाघ्राध्मास्थाम्नादान् दृश्यर्ति सर्ति शदसदाम् पिबजिघ्रदमतिष्ठमनयच्छ पश्यर्च्छ धौशीयसीदाः ज्ञाजनोर्जा प्वादीनाम् ह्रस्वः मीनातेर्निगमे मिदेर्गुणः जुसि च सार्वधातुकार्धधातुकयोः जाग्रो विचिन्नल्ङित्सु पुगन्तलघूपधस्य च नाभ्यस्तस्याचिपिति सार्वधातुके भूसुवोऽस्तिङि उतो वृद्धिर्लुकि हलि ऊर्णोतेर्विभाषा गुणो वृक्ते तृणः इम् ब्रुव ईट् यङो वा तुरुस्तु संयमः सार्वधातुके अस्तिसि चो वृक्ते बहुलम् छन्दसि रुदश्च पञ्चभ्यः अड्गार्ग्यगालवयोः अदः सर्वेषाम् अतो दीर्घो यञि सुपि च बहुवचने झल्येत् ओसि च आङि चापः सम्बुद्धौ च अम्बार्थनद्योर्ह्रस्वः ह्रस्वस्य गुणः जसि च ऋतोऽङि सर्वनामस्थानयोः घेर्ङिति आण्नद्याः याडापः सर्वनाम्नस्याढ्रस्वश्च विभाषाद्वितीया तृतीयाभ्याम् ङेराम् नद्याम् नेभ्यः इदुद्भ्याम् औत् अच्चघेः आङो नास्त्रियाम् इति तृतीयः पादः।